नमो नमः श्री हरये बुद्धिदाय दयावते भक्तिधर्मांग जाताय भक्तकल्पद्रुमाय च सुगंधपुष्पहारार्दे विविधैरुपहारके संपूजिताय भक्तोद्येहि सितांबरधराय च नामनामष्टोत्तरशतं चतुर्वर्गमभिप्सतां सद्यः फलप्रदं नृणां तस्य वक्षामि सत्पतेः अस्य श्रीजन्मङ्गलाख्यस्य श्रीहरियष्टोत्तरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुप्छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकेति बीजं बृहद्व्रतधरैति शक्तिः भक्तिनन्दनैति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः अथ ध्यानम् वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभो भक्तिधर्मात्मजो अजन्मा कृष्णो नारायणो हरिः हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतधरः शुद्धो राधाकृष्णष्टिदेवतः मरुतसुतप्रियः कालीभैरवाद्यतिभीषणः जितेन्द्रियो जिताहारस्तीव्रवैराग्यास्तिकः योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदो निद्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरस्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डौ छेदनपटुः स्वस्वरूपाचलस्थिति प्रशान्तमूर्तिनिर्दोषो असुरगुर्वादिमोहनः अतिकारुण्यनयन उद्धवाध्वप्रवर्तकः महाव्रतः साधुशील साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामिनारायण स्वामिकालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चास्थापनकरः कौलद्विट्टकलितारकः प्रकाशरूपो निर्दम्भः सर्वजीवहितावः भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः निर्मत्सरो भक्तवर्मा बुद्धिदाता अतिपावनः अबुद्धिर्हद ब्रह्मधाम दर्शकश्चापराजितः आसमुद्रान्तसत्कीर्तिः श्रितसंस्कृतिमोचनः उदारः सहजानन्दः साध्वीधर्मप्रवर्तकः कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः पञ्चायतनसन्मानो नैष्ठिकव्रतपोषकः प्रगल्भो निःस्पृह सत्यप्रतिज्ञो भक्तवत्सलः रोषणो दीर्घदर्शी षडोर्मे विजयक्षमः निरहंकृतिर्द्रोहृजुः सर्वोपकारकः नियामकश्चोक्षं स्थितिर्विनयवान् गुरुः अजातवैरिनिर्लोभो महापुरुषात्मदः अखण्डितार्षं मर्यादो व्याससिद्धान्तबोधकः मनोनिग्रहयुक्तिघ्न यमदूतविमोचकः पूर्णकामसत्यवादी गुणग्राही गतस्मयः सदाचारप्रियतरः पुण्यश्रवणकीर्तनः सर्वमङ्गलसद्रूपो नानागुणविचष्टितः इत्येतत् परमं स्तोत्रं जन्मङ्गलसङ्गीतं यः पठेतेन पठितं भवद्वै सर्वमङ्गलं यः पठेत् शृणुयाद् भक्त्या त्रिकालं श्रावये च वा एतत्तस्य तु पापानि नश्येयुः कील सर्वशः एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः भूतप्रेतपिशाचानां डाकिनीं ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादीनामुपद्रवः अभिचारो रिपुकृतो रोगश्चान्योऽपि उपद्रवः अयुतावर्तनादस्य नश्यत्येव न संशयः दशावृत्त्या प्रतिदिनमस्य अभीष्टं सुखं भवेत् गृहीभिः त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मङ्गलाख्यं श्रीहरियष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् नमो नमः श्रीहरये बुद्धिदाय दयावते भक्तिधर्माङ्गजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहारार्दे विविधैरुपहारकैः सम्पूजिताय भक्तोद्येहि सितांबरधराय च नामनामष्टोत्तरशतं चतुर्वर्गमभिप्सतां सद्यः फलप्रदं नृणां तस्य वक्षामि सत्पतेः अस्य श्रीजन्मङ्गलाख्यस्य श्रीहरियष्टोत्तरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुप्छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकेति बीजं बृहद्व्रतधरैति शक्तिः भक्तिनन्दनैति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः अथ ध्यानम् वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये श्रीकृष्णः श्रीवासुदेवो नर नारायण प्रभो भक्ति धर्मात्मजो अजन्मा कृष्णो नारायणो हरि हरे कृष्णो घनश्यामो धार्मिको भक्तिनंदन बृहद व्रतधर शुद्धो राधाकृष्णष्टदेवतः मरुतसुत प्रियः कालीभैरवाध्यतिभीषणः जितेन्द्रियो जिताहारस्तीव्र वैराग्यास्तिकः योगेश्वरो योगकला प्रवृत्ति रति धैर्यवान ज्ञानी परमहंसश्च तीर्थकृतार्थकार्चितः क्षमा निधि सदो निद्रो ध्यान निष्ठस्तपः प्रिय सिद्धेश्वर स्वतंत्रश्च ब्रह्म विद्या प्रवर्तकः पाषंडो छेदनपटु स्वस्वरूपाचलस्थिति प्रशांतमूर्ति निर्दोषो असुर गुरुवादिमोहन अतिकारुण्य नयन उद्भवाध्व प्रवर्तक महाव्रत साधुशील साधु विप्र प्रपूजक अहिंस यज्ञ प्रस्तोता साकार ब्रह्म वर्णन स्वामी नारायण स्वामी काल दोषो निवारक सच्छास्त्र व्यसन सद्य समाधि स्थिति कारक कृष्णार्चा स्थापन कर कौल द्विट कलितारक प्रकाश रूपो निर्दम्भ सर्वजीव हितावह भक्ति संपोषको वाग्मी चतुर्वर्ग फलप्रद निर्मत्सरो भक्तवर्मा बुद्धिदाता अति पावनः अबुद्धिर्हद ब्रह्मधाम दर्शकश्चापराजितः आसमुद्रांत सत्कीर्तिः श्रित संस्मृतिमोचन उदारः सहजानंद साध्वीधर्म प्रवर्तकः कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः पंचायतन सन्मानो नैष्ठिक व्रतपौषकः प्रगल्भो निस्पृह सत्य प्रतिज्ञो भक्तवत्सलः रोषण दीर्घदर्शी षडोर्मे विजयक्षमः निरहम कृतिर्द्रोहृजुः सर्वोपकारकः नियामकश्चौक्षं स्थितिर्विनयवान् गुरुः अजातवैरी निर्लोभो महापुरुषात्मदः अखंडितार्षं मर्यादो व्यास सिद्धांतबोधकः मनोनिग्रह युक्तिज्ञ यमदूत विमोचकः पूर्णकाम सत्यवादी गुणग्राही गतस्मयः सदाचार प्रियतरः पुण्यश्रवण कीर्तनः सर्वमंगल सद्रूपो नाना गुण विचष्टितः इत्येतत् परमं स्तोत्रं जन्मंगल संगीतं यः पठेतेन पठितं भवद्वै सर्वमंगलं यः पठेत शृणुयाद भक्त्या त्रिकालं श्रावयेत् वा एतस्य तु पापानि नश्येयुः कील सर्वशः एतत् संसेवमानानां पुरुषार्थ चतुष्टये दुर्लभं नास्ति किमपि हरिकृष्ण प्रसादतः भूत प्रेत पिशाचानां डाकिनीं ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादीनाम् उपद्रवः अभिचारो रिपुकृतो रोगश्चान्योऽपि उपद्रवः अयुतावर्तनादस्य नश्यत्येव न संशयः दशावृत्त्या प्रतिदिनमस्य अभीष्टं सुखं भवेत् गृहीभिः त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मङ्गलाख्यं श्रीहरियष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् नमो नमः श्रीहरिये बुद्धिदाय दयावते भक्तिधर्मांगजाताय भक्तकल्पद्रुमाय च सुगंधपुष्पहारार्धे विविधैरुपहारकैः संपूजिताय भक्तोद्यैः सितांबरधराय च नामनामष्टोत्तरशतं चतुर्वर्गमभिप्सतां सद्यः फलप्रदं नृणां तस्य वक्षामि सत्पतेः अस्य श्रीजन्मङ्गलाख्यस्य श्रीहरियष्टोत्तरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुपछन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकतिबीजं बृहद्व्रतधरैति शक्तिः भक्तिनन्दनैति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः अथ ध्यानम् वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभो भक्तिधर्मात्मजो अजन्मा कृष्णो नारायणो हरिः हरे कृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद व्रतधरः शुद्धो राधाकृष्णष्टदेवतः मरुतसुत प्रियः कालीभैरवाध्यतिभीषणः जितेन्द्रियो जिताहारस्तीव्र वैराग्यास्तिकः योगेश्वरो योगकला प्रवृत्ति रति धैर्यवान ज्ञानी परमहंसश्च तीर्थकृतार्थकार्चितः क्षमा निधि सदो निद्रो ध्यान निष्ठस्तपः प्रिय सिद्धेश्वर स्वतंत्रश्च ब्रह्म विद्या प्रवर्तकः पाषंडो छेदनपटु स्वस्वरूपाचलस्थिति प्रशांतमूर्ति निर्दोषो असुर गुरुवादिमोहन अतिकारुण्य नयन उद्भवाद्व प्रवर्तक महाव्रत साधुशील साधु विप्र प्रपूजक अहिंस यज्ञ प्रस्तोता साकार ब्रह्म वर्णन स्वामी नारायण स्वामी काल दोष निवारक सच्छास्त्र व्यसन सद्य समाधि स्थिति कारक कृष्णार्चा स्थापन कर कौल द्विट कलितारक प्रकाश रूपो निर्दम्भ सर्वजीव हितावह भक्ति संपोषको वाग्मी चतुर्वर्ग फलप्रद निर्मत्सरो भक्तवर्मा बुद्धिदाता अति पावन अबुद्धिर्हद ब्रह्मधाम दर्शकश्चा पराजितः आसमुद्रांत सतकीर्ति श्रित संस्मृति मोचन उदार सहजानंद साध्वी धर्म प्रवर्तक कंदर्प दर्प दलनो वैष्णव क्रतुकारक पंचायतन सन्मानो नैष्ठिक व्रत पौषक प्रगल्भो निस्पृह सत्य प्रतिज्ञो भक्तवत्सल रोषण दीर्घदर्शी षडोर्मे विजय क्षम निरहम कृतिर द्रोहरुजुः सर्वोपकारक नियामकश्चोक्षम स्थितिर्विनयवान गुरुः अजात वैरी निर्लोभो महापुरुषात्मद अखंडितार्ष मर्यादो व्यास सिद्धांत बोधक मनोनिग्रह युक्तिग्न यमदूत विमोचक पूर्ण काम सत्यवादी गुणग्राही गतस्मय सदाचार प्रियतर पुण्य श्रवण कीर्तन सर्वमंगल सद्रूप नाना गुण विचष्टित इत्येतत् परमं स्तोत्रं जन्मंगल संगितं यः पठेतेन पठितं भवद्वै सर्वमंगलं यः पठेत शृणुयाद भक्त्या त्रिकालं श्रावयेत् वा एतत्तस्य तु पापानि नश्येयुः कील सर्वशः एतत् संसेवमानानां पुरुषार्थ चतुष्टये दुर्लभं नास्ति किमपि हरिकृष्ण प्रसादतः भूत प्रेत पिशाचानां डाकिनीं ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादीनाम् उपद्रवः अभिचारो रिपुकृतो रोगश्चान्योऽपि उपद्रवः अयुतावर्तनादस्य नश्यत्येव न संशयः दशावृत्त्या प्रतिदिनमस्य अभीष्टं सुखं भवेत् गृहीभिः त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मङ्गलाख्यं श्रीहरियष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् नमो नमः श्रीहरये बुद्धिदाय दयावते भक्तिधर्माङ्गजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहारार्धै विविधैरुपहारकैः सम्पूजिताय भक्तोद्यैः सिताम्बरधराय च नाम्नामष्टोत्तरशतं चतुर्वर्गमभिप्सुतां सद्यः फलप्रदं नृणां तस्य वक्षामि सत्पतेः अस्य श्रीजन्मङ्गलाख्यस्य श्रीहरियष्टोत्तरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुपछन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकतिबीजं बृहद्व्रतधरैति शक्तिः भक्तिनन्दनैति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः अथ ध्यानम् वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभो भक्तिधर्मात्मजो अजन्मा कृष्णो नारायणो हरिः हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतधरः शुद्धौ राधाकृष्णष्टिदेवतः मरुतसुतप्रियः कालीभैरव्याधिभीषणः जितेन्द्रियो जिताहारस्तीव्रवैराग्यास्तिकः योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदो निद्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरस्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डौ छेदनपटुः स्वस्वरूपाचलस्थिते प्रशान्तमूर्तिनिर्दोषो असुरगुर्वादिमोहन अतिकारुण्यनयन उद्भवाद्वप्रवर्तकः महाव्रत साधुशील साधु विप्र प्रपूजकः अहिंस यज्ञ प्रस्तोता साकार ब्रह्म वर्णनः स्वामी नारायण स्वामी काल दोष निवारक सच्छास्त्र व्यसन सद्य समाधि स्थिति कारक कृष्णार्चा स्थापन कर कौल द्विट कलितारक प्रकाश रूपो निर्दम्भ सर्वजीव हितावह भक्ति संपोषको वाग्मी चतुर्वर्ग फलप्रद निर्मत्सरो भक्तवर्मा बुद्धिदाता अति पावनः अबुद्धिर्हद ब्रह्मधाम दर्शकश्चा पराजितः आसमुद्रांत सतकीर्तिः श्रित संस्मृति मोचन उदार सहजानंद साध्वी धर्म प्रवर्तक कंदर्प दर्प दलनो वैष्णव क्रतुकारक पंचायतन सन्मानो नैष्ठिक व्रत पौषक प्रगल्भो निस्पृह सत्य प्रतिज्ञो भक्तवत्सल रोषण दीर्घदर्शी षडोर्मे विजय क्षम निरहम कृतिर्द्रोहृजु सर्वोपकारक नियामकश्चौक्षं स्थितिर्विनयवान् गुरुः अजातवैरी निर्लोभो महापुरुषात्मदः अखंडितार्षं मर्यादो व्यास सिद्धांतबोधकः मनोनिग्रह युक्तिग्न यमदूत विमोचक पूर्ण काम सत्यवादी गुणग्राही गतस्मय सदाचार प्रियतर पुण्य श्रवण कीर्तन सर्वमंगल सद्रूप नाना गुण विचष्टितः इत्येतत् परमं स्तोत्रं जन्मंगल संगितं यः पठेतेन पठितं भवद्वै सर्वमंगलं यः पठेत शृणुयाद भक्त्या त्रिकालं श्रावयेत् वा एतत्तस्य तु पापानि नश्येयुः कील सर्वशः एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः भूतप्रेतपिशाचानां डाकिनीं ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादीनाम् उपद्रवः अभिचारो रिपुकृतो रोगश्चान्योऽपि उपद्रवः अयुतावर्तनादस्य नश्यत्येव न संशयः दशावृत्त्या प्रतिदिनमस्य अभीष्टं सुखं भवेत् गृहीभिः त्यागेभ्यश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मङ्गलाख्यं श्रीहरियष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्। नमो नमः श्रीहरये बुद्धिदाय दयावते भक्तिधर्माङ्गजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहारार्धै विविधैरुपहारकैः सम्पूजिताय भक्तोद्यैः सिताम्बरधराय च नाम्नामष्टोत्तरशतं चतुर्वर्गमभिप्सुतां सद्यः फलप्रदं नृणां तस्य वक्षामि सत्पतेः। अस्य श्रीजन्मङ्गलाख्यस्य श्रीहरियष्टोत्तरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुपछन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकतिबीजं बृहद्व्रतधरैति शक्तिः भक्तिनन्दनैति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः। अथ ध्यानम्। वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये। श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभो भक्तिधर्मात्मजो अजन्मा कृष्णो नारायणो हरिः। हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतधरः शुद्धौ राधाकृष्णष्टिदेवतः मरुतसुतप्रियः कालीभैरवाद्यतिभीषणः जितेन्द्रियो जिताहारस्तीव्रवैराग्यास्तिकः योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदो निद्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरस्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डौ छेदनपटुः स्वस्वरूपाचलस्थितिः प्रशान्तमूर्तिनिर्दोषो असुरगुर्वादिमोहनः अतिकारुण्यनयन उद्धववाध्वप्रवर्तकः महाव्रतः साधुशील साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामीनारायण स्वामीकालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चास्थापनकरः कौलद्विट्टकलितारकः प्रकाशरूपो निर्दम्भः सर्वजीवहितावः भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः निर्मत्सरो भक्तवर्मा बुद्धिदाता अतिपावनः अबुद्धिर्हद ब्रह्मधाम दर्शकश्चापराजितः आसमुद्रान्तसत्कीर्तिः श्रितसंस्मृतिमोचन उदारः सहजानन्द साध्वीधर्मप्रवर्तकः कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः पञ्चायतनसन्मानो नैष्ठिकव्रतपोषकः प्रगल्भो निःस्पृह सत्यप्रतिज्ञो भक्तवत्सलः रोषण दीर्घदर्शी षडोर्मे विजयक्षमः निरहं कृतिर्द्रोहृजुः सर्वोपकारकः नियामकश्चौक्षं स्थितिर्विनयवान् गुरुः अजातवैरी निर्लोभो महापुरुषात्मदः अखण्डितार्षं मर्यादो व्यास सिद्धान्तबोधकः मनोनिग्रह युक्तिग्न यमदूत विमोचकः पूर्ण काम सत्यवादी गुणग्राही गतस्मय सदाचार प्रियतर पुण्यश्रवण कीर्तनः सर्वमंगल सद्रूप नाना गुण विचष्टितः इत्येतत् परमं स्तोत्रं जन्मंगल संगितं यः पठेतेन पठितं भवद्वै सर्वमंगलं यः पठेत शृणुयाद भक्त्या त्रिकालं श्रावयेत् वा एतत्तस्य तु पापानि नश्येयुः कील सर्वशः एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभम नास्ति किमपि हरिकृष्ण प्रसादतः भूत प्रेत पिशाचानां डाकिनीं ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादीनाम् उपद्रवः अभिचारो रिपुकृतो रोगश्चान्योऽपि उपद्रवः अयुतावर्तनादस्य नश्यत्येव न संशयः दशावृत्त्या प्रतिदिनमस्य अभीष्टं सुखं भवेत् गृहीभिः त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मङ्गलाख्यं श्रीहरियष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्। नमो नमः श्रीहरये बुद्धिदाय दयावते भक्तिधर्माङ्गजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहारार्धै विविधैरुपहारकैः सम्पूजिताय भक्तोद्यैः सिताम्बरधराय च नाम्नामष्टोत्तरशतं चतुर्वर्गमभिप्सुतां सद्यः फलप्रदं नृणां तस्य वक्षामि सत्पतेः। अस्य श्रीजन्मङ्गलाख्यस्य श्रीहरियष्टोत्तरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुपछन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकतिबीजं बृहद्व्रतधर इति शक्तिः भक्तिनन्दन इति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः। अथ ध्यानम्। वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये। श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभो भक्तिधर्मात्मजो अजन्मा कृष्णो नारायणो हरिः। हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतधरः शुद्धौ राधाकृष्णष्टिदेवतः मरुतसुतप्रियः कालीभैरव्याधिभीषणः जितेन्द्रियो जिताहारस्तीव्रवैराग्यास्तिकः योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदो निद्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरस्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डौ छेदनपटुः स्वस्वरूपाचलस्थिति प्रशान्तमूर्तिनिर्दोषो असुरगुर्वादिमोहनः अतिकारुण्यनयन उद्धववाध्वप्रवर्तकः महाव्रतः साधुशील साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामिनारायण स्वामिकालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चास्थापनकरः कौलद्विट्टकलितारकः प्रकाशरूपो निर्दम्भः सर्वजीवहितावः भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः निर्मत्सरो भक्तवर्मा बुद्धिदाता अतिपावनः अबुद्धिर्हद ब्रह्मधाम दर्शकश्चापराजितः आसमुद्रान्तसत्कीर्तिः श्रितसंस्मृतिमोचन उदारः सहजानन्द साध्वीधर्मप्रवर्तकः कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः पञ्चायतनसन्मानो नैष्ठिकव्रतपोषकः प्रगल्भो निःस्पृह सत्यप्रतिज्ञो भक्तवत्सलः रोषणो दीर्घदर्शी षडोर्मे विजयक्षमः निरहंकृतिर्द्रोहृजुः सर्वोपकारकः नियामकश्चोक्षं स्थितिर्विनयवान् गुरुः अजातवैरी निर्लोभो महापुरुषात्मदः अखण्डितार्षं मर्यादो व्याससिद्धान्तबोधकः मनोनिग्रहयुक्तिघ्न यमदूतविमोचकः पूर्णकामसत्यवादी गुणग्राही गतस्मयः सदाचारप्रियतरः पुण्यश्रवणकीर्तनः सर्वमङ्गलसद्रूपो नानागुणविचष्टितः इत्येतत् परमं स्तोत्रं जन्मङ्गलसंज्ञितं यः पठेतेन पठितं भवद्वै सर्वमङ्गलं यः पठेत् शृणुयाद् भक्त्या त्रिकालं श्रावये च वा एतत्तस्य तु पापानि नश्येयुः कील सर्वशः। एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः भूतप्रेतपिशाचानां डाकिनीं ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादीनाम् उपद्रवः अभिचारो रिपुकृतो रोगश्चान्योऽपि उपद्रवः अयुतावर्तनादस्य नश्यत्येव न संशयः दशावृत्त्या प्रतिदिनमस्य अभीष्टं सुखं भवेत् गृहीभिः त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मङ्गलाख्यं श्रीहरियष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्। नमो नमः श्रीहरये बुद्धिदाय दयावते भक्तिधर्माङ्गजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहारार्धै विविधैरुपहारकैः सम्पूजिताय भक्तोद्यैः सिताम्बरधराय च नाम्नामष्टोत्तरशतं चतुर्वर्गमभिप्सुतां सद्यः फलप्रदं नृणां तस्य वक्षामि सत्पतेः। अस्य श्रीजन्मङ्गलाख्यस्य श्रीहरिष्टोत्तरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुप्छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकतिबीजं बृहद्व्रतधरैति शक्तिः भक्तिनन्दनैति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः अथ ध्यानम् वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभो भक्तिधर्मात्मजो अजन्मा कृष्णो नारायणो हरिः हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतधरः शुद्धौ राधाकृष्णष्टिदेवतः मरुतसुतप्रियः कालीभैरवाध्यतिभीषणः जितेन्द्रियो जिताहारस्तीव्रवैराग्यास्तिकः योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदो निद्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरस्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डौ छेदनपटुः स्वस्वरूपाचलस्थिति प्रशान्तमूर्तिनिर्दोषो असुरगुर्वादिमोहनः अतिकारुण्यनयन उद्धववाध्वप्रवर्तकः महाव्रतः साधुशील साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामिनारायण स्वामिकालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चास्थापनकरः कौलद्विट्टकलितारकः प्रकाशरूपो निर्दम्भः सर्वजीवहितावहः भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः निर्मत्सरो भक्तवर्मा बुद्धिदाता अतिपावनः अबुद्धिर्हद ब्रह्मधाम दर्शकश्चापराजितः आसमुद्रान्तसत्कीर्तिः श्रितसंस्कृतिमोचनः उदारः सहजानन्दः साध्वीधर्मप्रवर्तकः कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः पञ्चायतनसन्मानो नैष्ठिकव्रतपोषकः प्रगल्भो निःस्पृह सत्यप्रतिज्ञो भक्तवत्सलः रोषणो दीर्घदर्शी षडोर्मे विजयक्षमः निरहंकृतिर्द्रोहृजुः सर्वोपकारकः नियामकश्चोक्षं स्थितिर्विनयवान् गुरुः अजातवैरी निर्लोभो महापुरुषात्मदः अखण्डितार्षं मर्यादो व्याससिद्धान्तबोधकः मनोनिग्रहयुक्तिघ्न यमदूतविमोचकः पूर्णकामसत्यवादी गुणग्राही गतस्मयः सदाचारप्रियतरः पुण्यश्रवणकीर्तनः सर्वमङ्गलसद्रूपो नानागुणविचष्टितः इत्येतत् परमं स्तोत्रं जन्मङ्गलसङ्गीतं यः पठेतेन पठितं भवद्वै सर्वमङ्गलं यः पठेत् शृणुयाद् भक्त्या त्रिकालं श्रावये च वा एतत्तस्य तु पापानि नश्येयुः कील सर्वशः एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः भूतप्रेतपिशाचानां डाकिनीं ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादीनाम् उपद्रवः अभिचारो रिपुकृतो रोगश्चान्योऽपि उपद्रवः अयुतावर्तनादस्य नश्यत्येव न संशयः दशावृत्त्या प्रतिदिनमस्य अभीष्टं सुखं भवेत् गृहीभिः त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मङ्गलाख्यं श्रीहरिष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् नमो नमः श्रीहरये बुद्धिदाय दयावते भक्तिधर्माङ्गजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहारार्ध्यै विविधैरुपहारकैः सम्पूजिताय भक्तोद्यैः सिताम्बरधराय च नाम्नामष्टोत्तरशतं चतुर्वर्गमभिप्सतां सद्यः फलप्रदं नृणां तस्य वक्षामि सत्पतेः अस्य श्रीजन्मङ्गलाख्यस्य श्रीहरिष्टोत्तरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुप्छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकतिबीजं बृहद्व्रतधरैति शक्तिः भक्तिनन्दनैति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः अथ ध्यानम् वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभो भक्तिधर्मात्मजो अजन्मा कृष्णो नारायणो हरिः हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतधरः शुद्धौ राधाकृष्णष्टिदेवतः मरुतसुतप्रियः कालीभैरवाध्यतिभीषणः जितेन्द्रियो जिताहारस्तीव्र वैराग्यास्तिक योगेश्वरो योगकला प्रवृत्ति रति धैर्यवान ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चित क्षमा निधि सदो निद्रो ध्यान निष्ठस्तप प्रिय सिद्धेश्वर स्वतंत्रश्च ब्रह्म विद्या प्रवर्तक पाषंडो छेदनपटु स्वस्वरूपाचलस्थिति प्रशांतमूर्ति निर्दोषो असुर गुरुवादिमोहन अतिकारुण्य नयन उद्भवाध्व प्रवर्तक महाव्रत साधुशील साधु विप्र प्रपूजक अहिंस यज्ञ प्रस्तोता साकार ब्रह्म वर्णन स्वामी नारायण स्वामी काल दोषो निवारक सच्छास्त्र व्यसन सद्य समाधि स्थिति कारक कृष्णार्चा स्थापन कर कौल द्विट कलितारक प्रकाश रूपो निर्दम्भ सर्वजीव हितावह भक्ति संपोषको वाग्मी चतुर्वर्ग फलप्रद निर्मत्सरो भक्तवर्मा बुद्धिदाता अति पावन अबुद्धिर्हद ब्रह्मधाम दर्शकश्चापराजितः आसमुद्रांत सत्कीर्ति श्रित संस्मृति मोचन उदार सहजानंद साध्वी धर्म प्रवर्तक कंदर्प दर्प दलनो वैष्णव क्रतुकारक पंचायतन सन्मानो नैष्ठिक व्रत पौषक प्रगल्भो निस्पृह सत्य प्रतिज्ञो भक्तवत्सल रोषण दीर्घदर्शी षडोर्मे विजय क्षम निरहम कृतिर्द्रोहृजुः सर्वोपकारक नियामकश्चोक्षम स्थितिर्विनयवान गुरुः अजातवैरी निर्लोभो महापुरुषात्मद अखंडितार्षम मर्यादो व्यास सिद्धांत बोधक मनोनिग्रह युक्तिग्न यमदूत विमोचक पूर्ण काम सत्यवादी गुणग्राही गतस्मय सदाचार प्रियतर पुण्यश्रवण कीर्तन सर्वमंगल सद्रूप नाना गुण विचष्टित इत्येतत् परमं स्तोत्रं जन्मंगल संगितं यः पठेतेन पठितं भवद्वै सर्वमंगलम् यः पठेत शृणुयाद भक्त्या त्रिकालं श्रावयेत् वा एतत्तस्य तु पापानि नश्येयुः कील सर्वशः एतत् संसेवमानानां पुरुषार्थ चतुष्टये दुर्लभं नास्ति किमपि हरिकृष्ण प्रसादतः भूत प्रेत पिशाचानां डाकिनीं ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादीनाम् उपद्रवः अभिचारो रिपुकृतो रोगश्चान्योऽपि उपद्रवः अयुतावर्तनादस्य नश्यत्येव न संशयः दशावृत्त्या प्रतिदिनमस्य अभीष्टं सुखं भवेत् गृहीभिः त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मङ्गलाख्यं श्रीहरियष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् नमो नमः श्रीहरये बुद्धिदाय दयावते भक्तिधर्मांग जाताय भक्तकल्पद्रुमाय च सुगंधपुष्पहारार्धे विविधैरुपहारकैः संपूजिताय भक्तोद्यैः सितांबरधराय च नामनामष्टोत्तरशतं चतुर्वर्गमभिप्सतां सद्यः फलप्रदं नृणां तस्य वक्षामि सत्पतेः अस्य श्रीजन्मङ्गलाख्यस्य श्रीहरियष्टोत्तरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुप्छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकेति बीजं बृहद्व्रतधरेति शक्तिः भक्तिनन्दनेति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः अथ ध्यानम् वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभो भक्तिधर्मात्मजो अजन्मा कृष्णो नारायणो हरिः हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतधरः शुद्धो राधाकृष्णष्टिदेवतः मरुतसुतप्रियः कालीभैरवाद्यतिभीषणः जितेन्द्रियो जिताहारस्तीव्र वैराग्यास्तिकः योगेश्वरो योगकला प्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमा निधि सदो निद्रो ध्यान निष्ठस्तप प्रिय सिद्धेश्वर स्वतंत्रश्च ब्रह्म विद्या प्रवर्तक पाषंडो छेदनपटु स्वस्वरूपाचलस्थिति प्रशांतमूर्ति निर्दोषो असुर गुरुवादिमोहन अतिकारुण्य नयन उद्भवाध्व प्रवर्तक महाव्रत साधुशील साधु विप्र प्रपूजक अहिंस यज्ञ प्रस्तोता साकार ब्रह्म वर्णन स्वामी नारायण स्वामी काल दोषो निवारक सच्छास्त्र व्यसन सद्य समाधि स्थिति कारक कृष्णार्चा स्थापन कर कौल द्विट कलितारक प्रकाशरूपो निर्दम्भः सर्वजीवहितावह भक्तिसंपोषको वाग्मि चतुर्वर्ग फलप्रदः निर्मत्सरो भक्तवर्मा बुद्धिदाता अतिपावनः अबुद्धिर्हद ब्रह्मधाम दर्शकश्चापराजितः आसमुद्रान्तशतकीर्तिः श्रितसंस्मृतिमोचन उदारः सहजानन्द साध्वीधर्म प्रवर्तकः कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः पञ्चायतन सन्मानो नैष्ठिकव्रतपोषकः प्रगल्भो निःस्पृह सत्यप्रतिज्ञो भक्तवत्सलः रोषणो दीर्घदर्शी षडोर्मे विजयक्षमः निरहंकृतिर्द्रोहृजुः सर्वोपकारकः नियामकश्चोक्षं स्थितिर्विनयवान् गुरुः अजातवैरी निर्लोभो महापुरुषात्मदः अखण्डितार्षं मर्यादो व्याससिद्धान्तबोधकः मनोनिग्रहयुक्तिघ्न यमदूतविमोचकः पूर्णकामसत्यवादी गुणग्राही गतस्मयः सदाचारप्रियतरः पुण्यश्रवणकीर्तनः सर्वमङ्गलसद्रूपो नानागुणविचष्टितः इत्येतत् परमं स्तोत्रं जन्मङ्गलसंज्ञितं यः पठेतेन पठितं भवद्वै सर्वमङ्गलम् यः पठेत् शृणुयाद् भक्त्या त्रिकालं श्रावयेत् वा एतत्तस्य तु पापानि नश्येयुः कील सर्वशः एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः भूतप्रेतपिशाचानां डाकिनीं ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादीनामुपद्रवः अभिचारो रिपुकृतो रोगश्चान्योऽपि उपद्रवः अयुतावर्तनादस्य नश्यत्येव न संशयः दशावृत्त्या प्रतिदिनमस्य अभीष्टं सुखं भवेत् गृहीभिः त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मङ्गलाख्यं श्रीहरियष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्। नमो नमः श्रीहर्ये बुद्धिदाय दयावते भक्तिधर्माङ्गजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहारार्धै विविधैरुपहारकैः सम्पूजिताय भक्तोद्यैः सिताम्बरधराय च नाम्नामष्टोत्तरशतं चतुर्वर्गमभिप्सतां सद्यः फलप्रदं नृणां तस्य वक्षामि सत्पतेः। अस्य श्रीजन्मङ्गलाख्यस्य श्रीहरियष्टोत्तरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुपछन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकतिबीजं बृहद्व्रतधरैति शक्तिः भक्तिनन्दनैति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः। अथ ध्यानम्। वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये। श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभो भक्तिधर्मात्मजो अजन्मा कृष्णो नारायणो हरिः। हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतधरः शुद्धौ राधाकृष्णष्टिदेवतः मरुतसुतप्रियः कालीभैरवाद्यतिभीषणः जितेन्द्रियो जिताहारस्तीव्रवैराग्यास्तिकः योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदो निद्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरस्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डौ छेदनपटुः स्वस्वरूपाचलस्थिति प्रशान्तमूर्तिनिर्दोषो असुरगुर्वादिमोहन अतिकारुण्यनयन उद्धववाध्वप्रवर्तकः महाव्रतः साधुशील साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामिनारायण स्वामिकालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चास्थापनकरः कौलद्विट्टकलितारकः प्रकाशरूपो निर्दम्भः सर्वजीवहितावह भक्तिसंपोषको वाग्मि चतुर्वर्गफलप्रदः निर्मत्सरो भक्तवर्मा बुद्धिदाता अतिपावनः अबुद्धिर्हद ब्रह्मधाम दर्शकश्चापराजितः आसमुद्रान्तशतकीर्तिः श्रितसंस्मृतिमोचन उदारः सहजानन्द साध्वीधर्म प्रवर्तकः कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः पञ्चायतन सन्मानो नैष्ठिकव्रतपोषकः प्रगल्भो निःस्पृह सत्यप्रतिज्ञो भक्तवत्सलः रोषणो दीर्घदर्शी षडोर्मे विजयक्षमः निरहंकृतिर्द्रोहृजुः सर्वोपकारकः नियामकश्चोक्षं स्थितिर्विनयवान् गुरुः अजातवैरी निर्लोभो महापुरुषात्मदः अखण्डितार्षं मर्यादो व्याससिद्धान्तबोधकः मनोनिग्रह युक्तिघ्न यमदूत विमोचक पूर्ण काम सत्यवादी गुणग्राही गतस्मय सदाचार प्रियतर पुण्य श्रवण कीर्तन सर्वमंगल सद्रूप नाना गुण विचष्टितः इत्येतत् परमं स्तोत्रं जन्मंगल संगितं यः पठेतेन पठितं भवद्वै सर्वमंगलं यः पठेत शृणुयाद् भक्त्या त्रिकालं श्रावयेत् वा एतत्तस्य तु पापानि नश्येयुः कील सर्वशः एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः भूतप्रेतपिशाचानां डाकिनीं ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादीनाम् उपद्रवः अभिचारो रिपुकृतो रोगश्चान्योऽपि उपद्रवः अयुतावर्तनादस्य नश्यत्येव न संशयः दशावृत्त्या प्रतिदिनमस्य अभीष्टं सुखं भवेत् गृहीभिः त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मङ्गलाख्यं श्रीहरियष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्।